इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। केन्द्रीय गृहमन्त्रालयेन नव राष्ट्रिय आतंकरोधि नीत्याः प्रवर्तनं कृतं, यस्याः शीर्षको वर्तते प्रहार इति। प्रहार इत्येतस्य अर्थो वर्तते भारतीय नागरिकाणां हितरक्षायै आतंक्याक्रमणानाम् अवरोधनं, परिस्थित्याः अनुरूपं त्वरितं उचितं च कार्यान्वयनं, आन्तरिक क्षमतानाम् एकीकरणं, विदेहे अनुरूपं प्रतिक्रियाः, आतंकवादस्य सम्मुखीकरणाय अन्ताराष्ट्रिय प्रयासानां वर्धनं, समाज दृष्टिकोणानुरूपं कार्यान्वयनं च। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिम बंगालस्य जनेभ्यः पत्रलेखनमाध्यमेन विकासयात्रायां सम्मिलीकरणाय अनुरोधः कृतः। बंगाली भाषायां हिन्दी भाषायां च लिखिते पत्रे एतस्मिन् प्रधानमन्त्री श्रीनरेन्द्रमोदी पश्चिम बंगाले मतदातृभ्यः अनुरोधं कृतवान् अथ राज्ये भाजपादलस्य विकास सम्बद्धं दृष्टिकोणञ्च प्रस्तुतवान्। श्रीमोदी प्रोक्तवान् यत् आगामि मासेषु राज्यस्य भविष्यं सुनिश्चितं स्यात्। श्रीमोदी समुदीरितवान् यत् विगत दशक समये कुप्रबन्ध तुष्टीकरण राजनीति कारणेन बंगालस्य जनेभ्यः अपूरणीया क्षतिः, यस्याः वर्णनम् असम्भवम्। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् पीएम सूर्य घर योजना देशस्य स्वच्छोर्जा यात्रायां महत्वपूर्णः पदक्षेपः सिद्धः। श्रीमोदी एतया योजनया लाभान्वितानां समेषां जनानां प्रशंसामपि कृतवान्, येषां प्रयासैः स्थिरता आत्मनिर्भरता च वरिवृद्धा। श्रीमोदी प्रकाशितवान् यत् एतदन्तर्गतं देशे प्रायशः 30 लक्षाधिकेषु गृहेषु सौर ऊर्जा यन्त्राणि स्थापितानि। श्रीमोदी अग्रे प्रोक्तवान् यत् एषा योजना स्वच्छोर्जा सुरक्षित हरित भारताय महत्वपूर्णा। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य प्रभृति महाराष्ट्र झारखंड राजस्थान प्रदेशानां चतुर्दिवसीय यात्रायां प्रवर्तमाना स्यात्। राष्ट्रपतिः अद्य मुंबई नगरस्य लोकभवने पीडी हिन्दुजा चिकित्सालयेन समायोजितस्य राष्ट्रव्यापी अभियानस्य जीवन बचाना और स्वच्छ भारत का निर्माण इत्येतस्य अभियानस्य उद्घाटनं कुर्यात्। श्वः राष्ट्रपतिः शेगांव क्षेत्रे केन्द्रीय आयुष मन्त्रालयेन समायोजिते राष्ट्रिय आरोग्य मेलापके सम्मिलिता स्यात्। बुधवासरे नागपुरे ब्रह्मकुमारीभिः समायोक्ष्यमाणे राज्यस्तरीय कार्यक्रमे सम्मिलिता भविष्यति राष्ट्रपतिः। गुरुवासरे राष्ट्रपतिः जमशेदपुरस्थे श्रीजगन्नाथ मन्दिरस्य भूमिपूजन समारोहे सहभागितां विधास्यति। शुक्रवासरे राष्ट्रपतिः राजस्थानस्य पोखरण नगरे समायोक्ष्यमाणे वायु शक्ति कार्यक्रमे सम्मिलिता भविष्यति। जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालये आधुनिक संचार माध्यमानां संस्कृत भाषया मेलनम् इति विषये पञ्चदिवसीया कार्यशाला समारब्धा। एषा कार्यशाला केन्द्रीय संस्कृत विश्वविद्यालयस्य संयुक्त तत्वावधाने समायोज्यते। गतदिवसे समारब्धा एषा कार्यशाला 27 दिनांकं यावत् समायोजयेत्। उद्घाटन कार्यक्रमस्य अध्यक्षता विश्वविद्यालयस्य कुलपतिः वर्येण प्रोफेसर मदन मोहन झा महोदयेन कृता। कार्यशालायाः संयोजकः शास्त्री कौशलेन्द्र दासः कार्यशालायाः रूपरेखां विस्तृतेन प्रस्तुतवान्। उद्घाटन सत्रे कुलसचिवः गुंजन सोनी, शैक्षणिक परिसर निदेशकः डॉ विनोद शर्मा, अनुसंधान केन्द्र निदेशकः डॉ राजधर मिश्रः, शोधार्थिनः नैके गणमान्याश्च समुपस्थिताः आसन्। अन्ते च क्रीडा वार्तासु पुरुषाणां आईसीसी 20-20 विश्व चषक प्रतिस्पर्धायां गतदिने समायोजिते द्वन्द्वे वेस्टइंडीज दलेन जिम्बाब्वे दलं 70% धावनांकैः पराजितम् इति वार्ताः।